षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलम् कार्यम् कर्म करोति यः स सन्न्यासी च योगी च न निरग्निही न चाप्रियः यम् सन्न्यासमिति प्राहुः योगम् तम् विद्धि पाण्डव न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन
ते इन्द्रियः
मित्रार्युदासीन मध्यस्थ क्लेश्य बन्धुषु साधुष्वपि च पापेषु समबुद्धिः विशिष्यते स्थिरमासनमात्मनः नात्युच्छ्रितम् नातिनीचम् चैराजिनकुशोत्तरम् तत्रैकाग्र्यम् मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये समम् कायशिरोग्रीवम् धारयन्नचलम् स्थिरः सम्प्रेक्ष्य नासिकाग्रम् स्वम् दिशश्चानवलोकयन् प्रशान्तात्मा विगतभिः ब्रह्मचारिव्रते स्थितः मनः संयम्यमच्चित्तो युक्त आसीत् मत्परः युञ्जन्नेवम् सदात्मानम् योगी नियतमानसः शान्तिम् निर्वाणपरमा मत्संस्थाम् अधिगच्छति न जाति स्वप्रशीलस्य जाग्रतो नैव चार्जुना कर्मसु युक्त स्वप्नावबोधस्य योगो भवति दुःखः। आत्मन्येवावतिष्ठते निःस्पृह सर्वकामेभ्यो युक्त इत्युच्यते तदा। यथादीपो निवातस्थो नेङ्गते सोपमास्तुता योगिनो यदचित्तस्य युञ्जतो योगमात्मनः। परमते चित्तम् निरुद्धम् योगसेवया यत्र चैवात्मनात्मानम् पश्यन्नात्मनि तुष्यति सुखम् आत्यन्तिकम् यत्तद्बुद्धिग्राह्यम् अतीन्द्रियम् वीत्ति यत्र न चैवायम् स्थितः चलति तत्त्वतः। यम् लब्ध्वा च परम् लाभम् मन्यतेनाधिकम् ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तम् विद्याद्दुःखसंयोगवियोगम् योगसञ्ज्ञितम्। निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामम् विनियम्य समन्ततः शनैः शनैः उपनमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तये मनः चञ्चलम् अस्थिरम् ततस्ततो नियम्यैतत् आत्मन्येव वशम् प्रशान्तमनसं ह्येनम् योगिनं सुखम् उत्तमम् उपैति शान्तरजसम् ब्रह्मभूतम् अकल्मषम् परमो मतः। అర్జున ఉవాచ యోయం యోగస్త్వయా ప్రోక్తః సామ్యేన మధుసూదన ఏతస్యాహం న పశ్యామి చంచలత్వాత్ స్థితిం స్థిరా. చంచలం హి మనః కృష్ణ ప్రమాథి బలవద్దృఢం తస్యాగం నిగ్రహం మన్యే వాయోరివ సుదుష్కరం. భగవాన్ వాచ అసంశయం మహాబాహో మనో దుర్నిగ్రహం చలం అభ్యాసేన తు కౌంతేయ వైరాగ్యేణ చ గృహ్యతే. అర్జున ఉవాచ అయతిహి శ్రద్ధయోపేతో యోగాచరితమానసః అప్రాప్య యోగసంసిద్ధిం కాం గతిం కృష్ణ గచ్ఛతి. కచ్చిన్నోభయ విభ్రష్టః చిన్నాభ్రమివ నశ్యతి అప్రతిష్ఠో మహాబాహో విమూఢో బ్రహ్మణః పథి. సంశయం కృష్ణ చేతుం అర్హస్య శేషతః వదన్యః సంశయస్యాస్య చేతానఖ్యుపపద్యతే. పార్థ నైవేగ నాముత్ర వినాశః తస్య విద్యతే నహి కళ్యాణకృత్ కశ్చిత్ దుర్గతిం తాత గచ్ఛతి. सुजीराम श्रीमतां येने योग भ्रष्टो यतते च ततो भूयः संसिद्धौ गुरु शो सखा जिज्ञासुरपि योगस्य शब्द ब्रह्माति वर्तते कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः।